निषिद्धैरप्येभिर्ललितमकरन्धो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिशरणयोरञ्जलिरयम्। प्रवेशकः समाप्तः। राक्षसराक्षस्योः संवादः आसीत्। इदानीम् अश्वत्थामा प्रविशति। तं दृष्ट्वा भयङ्करः अस्ति सः इति भीत्या राक्षसः राक्षसी च अपसरतः। तदेव प्रवेशके अपि उक्तमासीत्। इदानीं ततः प्रविशति आकृष्टखड्गः। आकृष्टखड्गः नाम खड्गहस्तः, हस्ते खड्गः अस्ति अश्वत्थाम्नः हस्ते। तादृशः अश्वत्थामा कलकलम् आकर्णयन् अश्वत्थामा। तत्र कोऽपि शब्दः श्रूयते, तं शब्दं शृण्वन् प्रविशति अश्वत्थामा। अश्वत्थामा महाप्रलय मारुत क्षुभित पुष्कर आवर्तक प्रचण्ड घनगर्जित प्रतिरव अनुकारी मुहुः रवः श्रवणभैरवः स्थगित रोदसी कन्दरः कुतः अद्य समर उददेः अयम् अभूतपूर्वः पुरः इति तं शब्दं शृण्वन् प्रविशति अश्वत्थामा। तं शब्दं वर्णयति, कथम् एषः भीषणः शब्दः समर उदधेः नाम युद्ध समुद्रात् युद्धभूम्याः कथम् एतादृशः शब्दः श्रूयते इति प्रविशति। अयं रवः इति, तत्र रवः इत्युक्ते शब्दः इति अस्त इति अर्थः। कीदृशः शब्दः अस्ति इति अस्मिन् श्लोके विवरणं दीयते, शब्दः कीदृशः अस्ति इति। प्रथमं महाप्रलय मारुत क्षुभित पुष्कर आवर्तक प्रचण्ड घनगर्जित प्रतिरव अनुकारी। अनुकारी इत्युक्ते एकोस् इति अर्थः, एको कस्य शब्दस्य एको इव अस्ति, एषः अभूतपूर्वः अयं रवः इति चेत्, प्रलयकालस्य मेघाः ये सन्ति तेषां गर्जनेन कीदृशः शब्दः श्रूयते, तादृशः शब्दः अद्य इदानीं समरभूम्याः श्रूयते इति सः आश्चर्यान्वितः अस्ति अश्वत्थामा। महाप्रलयम् इत्युक्ते प्रलयः इत्युक्ते प्रति चतुर्युगात् परम् एकः प्रलयः जायते इति ज्ञायते। महाप्रलयम् इत्युक्ते कतिचित् प्रलयाः ततः परं महाप्रलयः जायते इति ज्ञायते। अहमपि स्पष्टं न जानामि अस्मिन् विषये, पुराणानि द्रष्टव्यानि। महाप्रलयेन यः वायुः वाति तेन वायुना क्षुभिताः सन्ति, क्षुभिताः नाम चालिताः सन्ति प्रलयकालमेघाः। प्रलयकालमेघानां नाम एव पुष्कर आवर्तक इति, प्रलयकालमेघानां नाम, तेषां वीर्यं बहु अधिकं भवति इति श्रूयते। एवं प्रलयकालस्य वायुना अथवा मरुता सञ्चालिताः क्षुभिताः पुष्करावर्तकादि मेघाः तेषां प्रचण्ड, प्रचण्ड इत्युक्ते भयङ्कर, प्रचण्ड घनगर्जित, घनगर्जित नाम तेषां मेघानां क दृढगर्जनं यत् श्रूयते, तस्य गर्जनस्य एको इव अस्ति प्रतिरव अनुकारि। प्रतिरवम् इत्युक्ते एको इति अर्थः। तस्य गर्जनस्य प्रलयकालमेघानां वायुना क्षुभिताः प्रलयकालमेघाः तेषां गर्जनम् अनुकरोति इव अस्ति एषः शब्दः इति। मेघानां परस्परसङ्घर्षणेन यः शब्दः उत्पद्यते तं शब्दम् अनुकरोति एषः युद्धभूम्याः आगतः शब्दः अर्थः आगतः वा? मुहुः पुनः स्थगितरोदसी कन्दरः. स्थगित रोदसी इत्युक्ते ध्यावा पृथिवी, नाम आकाशभूमि इति अर्थः. द्वयमपि मिलित्वा रोदसी रोदसी इति पदेन उच्यते. एवं स्थगित रोदस्योः कन्दरः. कन्दरः इत्युक्ते छिद्रं. कन्दरः आकाशभूम्योः विद्यमानः मध्यभागः, नाम गुहा इत्यपि वक्तुं शक्यते. तदेव कन्दरः इति. एवम् एषः शब्दः स्थगितरोदसी कन्दरः अस्ति. स्थगितः नाम पूरितः, व्याप्तः. यः कन्दरः, या गुहा आकाशभूम्योः मध्ये अस्ति, तं कन्दरं व्याप्नोति एषः शब्दः. पुनः श्रवणभैरवः, श्रोतुं भयङ्करः अस्ति अयं शब्दः. तदेव श्रवणभैरवः. अभूतपूर्वः, पूर्वम् एतादृशः शब्दः न श्रुतः एव, विशिष्य समरभूमेः, समर उदधेः, समरसमुद्रात्. समर उदधेः, समरः एव उदधिः नाम समुद्रः, तादृशात् समरसमुद्रात् एतादृशः शब्दः श्रूयते. अभूतपूर्वः रवः, अश्रुतपूर्वः शब्दः श्रूयते. पुरः कुतः अद्य, अद्य पुरः नाम पुरतः इति. मम पुरतः एषः शब्दः कथम् आयाति इति. अत्र रूपक अलङ्कार एव. समर उदधेः इत्यत्र समरः एव उदधिः, समरः एव समुद्रः इव अस्ति इति कृत्वा तत्र रूपक अलङ्कारः इति वक्तुं शक्यते. रोदसी कन्दरः इत्यत्रापि रूपक अलङ्कारः एव. रोदस्योः नाम आकाशपृथिव्योः, पृथिव्यौ एव कन्दरः, गुहा इति कृत्वा अत्रापि रूपक अलङ्कारः भवति. सामान्यव्यवहारसंस्कृते तु स्थगित इति पदस्य स्थगनं करोति, टु स्टाप् इति अर्थः भवति. किन्तु अत्र तु स्थगित इति शब्दस्य पूरयति इति अर्थः स्वीक्रियते. स्थगित इति पदस्य कवर्ड् कवर्ड् अथवा क्लोज्ड् इत्यपि अर्थः अस्ति. व्याख्यां पठामः. महाप्रलयेन, महाप्रलयङ्करेण मारुतेन वायुना, मारुतेन वायुना क्षुभितौ इतस्ततः सञ्चालितौ यौ पुष्करावर्तकौ प्रलयकालिकमेघविशेषौ तयोः प्रचण्डं भीषणं यद् घणघर्जितं मेघगर्जनं तस्य प्रतिरवस्य प्रतिध्वनेः अनुकारी अनुकरः स्थगितरोदसी स्थगितं व्याप्तं रोदस्योः द्यावापृथिव्योः कन्दरं गह्वरं येन तथा श्रवणभैरवः श्रवणयोः कर्णयोः भैरवः भयङ्करः समर उदधेः समर एव उदधिः तस्मात् अभूतपूर्वः न भूतः पूर्वं प्राक् इति अभूतपूर्वः अश्रुतपूर्वः पुरः समक्षम् अयम् एषः रवः ध्वनिः अद्य अस्मिन् दिने कुतः कस्मात् स्थानात् उत्थितः इति उपमालङ्कारः. अस्तु, इदानीं विचिन्त्य ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पात् अतिक्रान्तमर्यादेन परिकोपितः तातः यतः समुल्लङ्घ्य शिष्यप्रियताम् आत्मप्रभावसदृशम् आचेष्टते तथा हि ध्रुवं निश्चयेन गाण्डीविना सात्यकिना वृकोदरेण वा. गाण्डीवी अर्जुनः, अर्जुनेन वा सात्यकिना वा वृकोदरः भीमः, भीमेन वा यौवनदर्पात् यौवनेन गर्वः जायते तस्मात् यौवनगर्वात् अहङ्कारात् अतिक्रान्तमर्यादेन मर्यादाम् अतिक्रान्तः मर्यादाम् अतिक्रम्य आचरितवन्तः स्युः एते वा नो चेत् एतेषु एकः वा मर्यादाम् अतिक्रम्य किमपि आचरणं कृतवान् स्यात् अतः तातः परिकोपितः मम पितुः कोपः जातः इति मन्ये यतः कारणं समुल्लङ्घ्यशिष्यप्रियताम् आत्मप्रभावसदृशम् आचेष्टते शिष्यप्रियतां समुल्लङ्घ्य इति अन्वयः करणीयः शिष्यप्रियतां समुल्लङ्घ्य शिष्येषु यत् प्रियमस्ति तत् उल्लङ्घ्य सः मम पिता आत्मप्रभावसदृशम् आत्मनः आत्मनः प्रभावेन यत् सदृशं कार्यम् अस्ति तादृशं कार्यं तत्कार्यं कृतवान् अस्ति इति अहं मन्ये इति अश्वत्थामा वदति. एतस्य शब्दस्य कारणं प्रायेण मम पिता एव इति मम पितुः कोपः जातः स्यात् अत एव एतादृशः शब्दः युद्धक्षेत्रात् श्रूयते. सः कोपः किमर्थं स्यात् इत्युक्ते अर्जुनः सात्यकिः भीमः वा स्वस्य यौवनस्य गर्वात् किमपि पितुः अनिष्टम् आचरितवान् स्यात् अत एव पिता यद्यपि शिष्यप्रियः अस्ति तथापि तत्प्रियम् उल्लङ्घ्य सः स्वस्य प्रभावसदृशं किमपि कार्यम् आचरितवान् अत एव एतादृशः शब्दः स्वप्रभावेन सदृशं किमपि कार्यम् आचेष्टते मम पिता. तथा हि यद् दुर्योधनपक्षपातसदृशं युक्तं यद् अस्त्रग्रहे रामात् लब्धसमस्तहेतिगुरुणः वीर्यस्य यत् साम्प्रतं लोके सर्वधनुष्मताम् अधिपतेः यच्च अनुरूपं रुषः प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे मे तातेन मम पित्रा नियतं निश्चयेन तत्कर्म प्रारब्धं तादृशं कर्म आरब्धम्. कीदृशं कर्म प्रारब्धम् इति चेत् यद् दुर्योधनस्य पक्षपाती अस्ति इति कारणात् तद् अनुगुणम् एकं कार्यम् अथवा परशुरामात् अस्त्रप्राप्ति अनुरूपं कार्यं वीर्यं प्रदर्शयितुं स्यात् अथवा धनुर्धराणां पतिः अस्ति द्रोणाचार्यः मम पिता किङ्ग् आफ् आल् आर्चर्स् अस्ति सः अतः तदनुरूपं कश्चित् कोपः स्यात् अत एव एतादृशं कार्यं कृतवान् स्यात् मम पिता इति अश्वत्थामा चिन्तयति. यत् दुर्योधनपक्षपातसदृशं यत् कार्यं दुर्योधनस्य पक्षे स्थित्वा युद्धं क्रियते तत्सदृशं युक्तं नाम उचितं कार्यं दुर्योधनपक्षपातसदृशं युक्तं दुर्योधनस्य पक्षे स्थित्वा युद्धं क्रियते इति कारणात् तदनुगुणं कृतं कार्यम्. यद् अस्त्राणां ग्रहणसमये यद् युक्तं यत् कार्यं युक्तं तत्कर्म प्रारब्धम् इति सर्वत्र अन्वेति एवम् अन्वयः क्रियते चेत् सरलतया अर्थ अवगमनं भवति. अस्त्रग्रहणसमये यत् युक्तम् उचितं कार्यं तत्कर्म प्रारब्धम्. अनन्तरं रामात् लब्धसमस्तहेतिगुरुणः वीर्यस्य यत् साम्प्रतं रामात् परशुरामात् लब्ध प्राप्त समस्त विविध अथवा सर्व हेति हेति नाम अस्त्रं शस्त्रम् आयुधम् अस्त्र शस्त्रैः गुरुणः गुरुणः नाम प्राप्तगौरवः यः अस्ति तस्य वीर्यस्य तस्य वीर्यस्य तस्य पराक्रमस्य साम्प्रतम् उचितं यत् साम्प्रतं यत् कार्यम् उचितम् अस्ति तादृशस्य पराक्रमस्य अनुगुणं कार्यम् एव कृतम् अस्ति तत् कर्म प्रारब्धं तादृशम् एकम् उचितं कार्यमेव प्रारब्धं मम पित्रा परशुरामात् प्राप्तैः अस्त्रैः जातवीर्यः मम पिता तद् अनुगुणं कार्यं कृतवान् इति अर्थः लोके सर्वधनुष्मतां सर्वेषां धनुर्धराणाम् अधिपतेः अधिपतेः इत्युक्ते पतिः अथवा राजा राजासदृशः एक्स्पर्ट् इति अर्थः एवं सर्वधनुर्धराणाम् अधिपति यः अस्ति तस्य ऋषः तस्य कोपस्य ऋषः इत्युक्ते कोपः कोपस्य यत् च अनुरूपं यत् कार्यं युक्तमस्ति उचितमस्ति तत्कर्म प्रारब्धं मम पित्रा तस्य कोपस्य यत् अनुरूपमस्ति तत् कार्यं मे तातेन मे पित्रा कीदृशेन पित्रा रिपुघस्मरेण घस्मरः इत्युक्ते नाशकः इत्यर्थः रिपुघस्मरः इत्युक्ते रिपुनाशकः रिपुनाशकेन मम पित्रा नियतं निश्चयेन तत्कर्म प्रारब्धं मम पित्रा तत्कर्म तत् कार्यं कृतम् अनेन श्लोकेन अश्वत्थामा स्वपितुः प्रभावस्य प्रशंसां करोति सगर्वं प्रशंसति स्म दुर्योधनस्य पक्षपाती भूत्वा यत् उचितं कर्म तत् यत् उचितं कार्यमस्ति तदेव कृतं स्यात् मम पित्रा अथवा अस्त्रग्रहणसन्दर्भे यत् कार्यम् उचितं करणीयमस्ति तदेव कृतं स्यात् मम पित्रा अथवा परशुरामात् लब्ध अस्त्रैः प्राप्तवीर्यस्य यत् अनुगुणं कार्यं तद् कृतं स्यात् अथवा सर्वधनुर्धारिणाम् अधिपतिः अधिपतेः कियत् कोपः आगच्छति चेत् सः कथं व्यवहरति तदेव अनुकृतवान् स्यात् मम पित्रा एतादृशेन मम पित्रा रिपुनाशकेन मम पित्रा एतत् कार्यं निश्चयेन कृतवान् स्यात् कृतं स्यात् मम पित्रा इति एतत् वाक्यं प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे इति वाक्यम् IRC ससन्दर्भं व्याख्यात इति प्रश्ने भवितुमर्हति एवं यद् दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहणे रामाल्लब्धसमस्तहेति गुरुणो वीर्यस्य यत् साम्प्रतम् इति अस्मिन् श्लोके वीररसः व्यज्यते वीररसः ज्ञायते व्याख्यां पठामः दुर्योधनपक्षपातसदृशं दुर्योधनस्य कौरवराजस्य पक्षपातः पक्ष अवलम्बनं तत्सदृशं तथाविधं यत् अस्त्रग्रहणे अस्त्रस्य आयुधस्य ग्रहणे ग्रहे ग्रहणे युक्तम् उचितं यत् रामात् परशुरामात् लब्धसमस्तहेतिगुरुणः लब्धाः समस्तहेतयः ताभिः गुरुः तस्य प्राप्तनिखिलशस्त्रविद्यागौरवस्य वीर्यस्य पराक्रमस्य साम्प्रतं युक्तं यत् लोके जगति सर्वधनुष्मतां सर्वधनुर्धारिणाम् अधिपतेः स्वामिनः ऋषः क्रोधस्य अनुरूपम् अनुकूलं रिपुघस्मरेण रिपुनाशकेन मे मम अश्वत्थाम्नः तातेन जनकेन तत् तादृक्भयङ्करं कर्म शत्रुनाशनं नियतं निश्चितं प्रारब्धम् आरब्धम् अत्र उत्प्रेक्षा अलङ्कारः नियतं निश्चयम् इति एतादृशानि पदानि सन्ति चेत् तत्र प्रायेण उत्प्रेक्षालङ्कारः भवति. अग्रे पठामः. पृष्ठतो विलोक्य तत्कोत्र रथम् उपनयतो अथवा अलम् इदानीं मम रथप्रतीक्षया अनया सशस्त्र एव अस्मि. स जलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणा अमुना खड्गेन यावत् समरभुवम् अवतरामि. पृष्ठतो विलोक्य ततः लोक्य तत्कोत्र कः अत्र अस्ति रथम् उपनयतु रथम् आनयतु इति आज्ञां करोति. किन्तु समनन्तरं रथप्रतीक्षया अनया अलम् अहं रथप्रतीक्षाम् इदानीं न करोमि. अलम् इदानीं मम रथप्रतीक्षया अनया अनया रथप्रतीक्षया रथस्य प्रतीक्षा या क्रियते मया तया अलम् अहं तु सशस्त्रः एव अस्मि. शस्त्रसहितः सशस्त्रः शस्त्रसहितः एव अस्मि अहम्. एतेन खड्गेन एव अहं समरभूमिं प्रविशामि. हस्ते अस्त्रम् अस्ति चेत् अलं तेनैव अहं प्रवेष्टुं शक्नोमि इति चिन्तयति. स जल जलधरप्रभावभासुरेण इति तृतीया विभक्ति, अमुना खड्गेन इति पदेन अन्वेति तृतीया विभक्त्यन्तं पदं सर्वम्. खड्गेन समरभूम् अवतरामि, समरभूमिं प्रविशामि, प्राप्नोमि इति. खड्गेन इति पदस्य विशेषणमस्ति. स जल जलधर प्रभाभासुरेण स जल जलसहित जलधर मेघ जलसहित सहित मेघानां या प्रभा अस्ति या द्युतिः प्रकाशः अस्ति तया प्रभया भासुरेण प्रकाशमानेन स जल मेघानां या द्युतिः अस्ति तया द्युत्या प्रकाशमाना अस्ति एषः मम खड्गः तादृशेन खड्गेन. सुप्रग्रह विमल कलधौतत् सरुणा अमुना. सुप्रग्रह नाम ग्रहीतुं सुकरः भवति, ग्रहीतुं सुकरम् अस्ति यत्. विमल विमल नाम प्योर् अमल. कलधौत सुवर्णं, कलधौत इत्युक्ते स्वर्णं. स्वर्ण सरुणात् सरु इत्युक्ते मुष्टिस्थानं नाम यत्र गृह्यते खड्गः, यत्र गृह्यते तत् स्थानं, कैपिडि इति वदामः, हेण्डल् इति. एवं ग्रहीतुं सुकरम् अस्ति यत् विमल सुवर्णेन निर्मितः खड्ग निर्मितः मुष्टि निर्मितं मुष्टिस्थानं तादृशेन खड्गेन यावत् समरभुवम् अवतरामि अहं सव युद्धक्षेत्रं युद्धभूमिम् अहं प्राप्नोमि. परिक्रम्य वामाक्षिस्पन्दनं सूचयित्वा. वामाक्षिस्पन्दनं तु सर्वदा दुःशकुनसूचकम् अस्ति. कथं ममापि नाम अश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्य अनिमित्तानि समरगमनविघ्नम् उत्पादयन्ति. भवतु गच्छामि. ममापि अश्वत्थाम्नः इति सगर्वं वदति. ममापि अश्वत्थाम्नः नाम अस्य अश्वत्थाम्नः अश्वत्थाम्नः कीदृशस्य मम इत्युक्ते समरमहोत्सवप्रमोदनिर्भरस्य. समरः एव युद्धम् एव महान् उत्सवः अस्ति, महोत्सवः अस्ति. तेन प्रमोदः अतिसन्तुष्टः, प्रमोदनिर्भरः अस्मि अहम्, अतिसन्तुष्टः अस्मि. तादृशस्य अश्वत्थाम्नः. तन्मात्रं न, तात विक्रमदर्शनलालसस्य पिता पितुः विक्रम पराक्रमस्य दर्शनं कर्तुं लालसस्य उत्सुकस्य तुष्टस्य पितुः पराक्रमयुक्तानि कार्याणि द्रष्टुम् उत्सुकस्य. अश्वत्थाम्नः इति. तादृशस्य अश्वत्थाम्नः अनिमित्तानि नाम दुःशकुनानि, अनिष्ठानि किम् उत्पादयन्ति? समरगमनविघ्नम् उत्पादयन्ति. युद्धक्षेत्रं गन्तुं, युद्धक्षेत्रस्य गमनं यत् अस्ति तस्य गमनस्य विघ्नं, प्रतिबन्धकम् उत्पादयन्ति एतानि अनिमित्तानि. भवतु गच्छामि, तत्तथा भवतु, चिन्ता नास्ति, तथापि अहं गच्छामि. सावष्टम्भं परिक्रम्य अग्रतो विलोक्य. अवष्टम्भः इत्युक्ते गर्वः, सावष्टम्भम् इत्युक्ते सगर्वं, गर्वसहितं परिक्रम्य परितः गत्वा अग्रतः विलोक्य पुरतः दृष्ट्वा वदति. कथम् अवधीरितक्षात्रधर्माणाम् उञ्चितसत्पुरुष उचित लज्जा अवगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरङ्गमचरणचारिणाम् अगणितकुलयशसदृशपराक्रमव्रतानां रणभूमेः समन्तात् अपक्रामताम् अयं महान् नादः बलानां. बलानाम् इति पदस्य विशेषणानि सन्ति सर्वाणि अपि पदानि. बलानाम् अयं महान् नादः कथम्, एतदेव मुख्यं वाक्यम् अस्ति. बलानाम् इत्युक्ते सेनानां, सेनानां महान् नादः, महान् शब्दः, अयं महान् शब्दः कथं श्रूयते, कथं भवति इति. बलानाम् इत्युक्ते अत्र युद्धक्षेत्रे विद्यमानानां सैनिकानाम् इति अर्थः. बलानाम् इति पदस्य विशेषणानि सन्ति. युद्ध रणभूमेः समन्तात् अपक्रमतां, राम नाम युद्धक्षेत्रात् अपक्रमतां, बहिर् आगच्छन्तः सन्ति केचन सैनिकाः, तेषां महान् नादः कथम् इति. ते कीदृशाः सन्ति इत्युक्ते अवधीरितक्षात्रधर्माणाम्, अवधीरित नाम तिरस्कृतः, क्षात्रधर्मः क्षत्रियाणां धर्मः, यैः ते तेषां बलानाम् इति. तिरस्कृतं तिरस्कृतः क्षात्रधर्मः क्षत्रियाणां धर्मः, यैः ते अवधीरितक्षात्रधर्माः तेषाम्. उञ्चित सत्पुरुष उचित लज्जा अवगुण्ठनानाम्, उञ्चित त्यक्त लज्ज, सत्पुरुष उचित, सत्पुरुषाणां यत् उचितम् अस्ति लज्जा इति गुणः, लज्जा एव अवगुण्ठनम् अस्ति. अवगुण्ठनम् इत्युक्ते वेयिल् इति अर्थः, एक आच्छादनं. सत्पुरुषाणाम् एव उचिता अस्ति एषा लज्जा इति अवगुण्ठना. तां लज्जां त्यक्तवन्तः एते, नाम लज्जाहीनाः इति अर्थः. अग्रे विस्मृतस्वामिसत्कारलघुचेतसां, स्वामी इति अत्र राजा इति अर्थः. राज्ञा यत् सत्कारं कृतं, सत्कारः कृतः, सः सत्कारः एतैः विस्मृतः, अतः विस्मृतस्वामिसत्कारः, अथ एव लघुचेतसः जाताः. स्वराज्ञा ये ये सत्काराः कृताः तान् सर्वान् विस्मृत्य विस्मृतवन्तः, तस्मात् लघुचेतसः जाताः, नाम मीन् मैण्डेड् सैनिकाः जाताः तादृशानां बलानाम् इति. अग्रे द्विरदतुरङ्गमचरणचारिणां, द्विरद गज, तुरङ्गम अश्व, चरणचारिणः पदातयः, पद्भ्यां ये गच्छन्ति ते, अत्र रथः नास्ति, एवं गज अश्व पदातीनाम्. अगणितकुलयशसदृशपराक्रमव्रतानां, स्वस्य कुलस्य स्वकुलयशसदृश, यशसा सदृशः यः पराक्रमः अस्ति सः पराक्रमः एव तेषां व्रतमस्ति. किन्तु एते तु अगणितकुलयशसदृशपराक्रमव्रताः सन्ति. एते नाम तेषां कुलयशसदृशपराक्रमं न चिन्तयन्ति एते. एतत् सर्वं विशेषणं सर्वं नेगेटिव् विशेषणमेव अस्ति एतेषां तादृशानां बलानां रणभूमेः युद्धक्षेत्रात् समन्तात् नाम फ्रम् आल् सैड्स् इति अर्थः. अपक्रामतां बहिर् आगतानां पराङ्मुखानाम् इति अर्थः. पराङ्मुखानाम् अयं महान् नादः कथम्. एवं युद्धक्षेत्रात् पराङ्मुखानाम् एतेषां बलानाम् अयं महान् नादः कथम् इति. बलानाम् इत्यस्य विशेषणमस्ति सर्वमपि पदम्. अवधीरितक्षात्रधर्माणाम् इत्युक्ते तिरस्कृतक्षत्रियाणां धर्मः येषां ते तादृशानां. सत्पुरुष उचित लज्जा इति गुणमस्ति. लज्जा इति अवगुण्ठनम् यदस्ति तद् त्यक्तवन्तः. विस्मृतस्वामिसत्कारलघुचेतसां प्राज्ञा कृतान् सत्कारान् सर्वान् विस्मृत्य लघुचेतसः ये जाताः तेषां गज अश्व पदातीनाम् अगणितकुलयशसदृशपराक्रमव्रतां पराक्रमव्रतिनः आसन् एते. तत्सर्वम् इदानीं तेषां कुलव्रतम् अविगणय्य पराक्रमम् इति तेषां कुलव्रतः आसीत् तं कुलव्रतं विस्मृत्य रणभूमेः इदानीं निस्सरन्तः सन्ति तेषां बलानां कथम् एतादृशः महान् शब्दः श्रूयते इति. निरूप्य निरूप्य इत्युक्ते सम्यक् दृष्ट्वा इति. हा हा धिक् कष्टं कथम् एते महारथाः कर्णादयो अपि समरात् परामुखाः भवन्ति. एते महारथाः वीराः कर्णादयः कर्ण इत्यादयः अपि समरात् युद्धक्षेत्रात् परामुखाः भवन्ति. नाम बहिर् अभिमुखाः न सन्ति, बहिः युद्धात् पराङ्मुखाः सन्ति. एतत् कथम् इति पृष्ट्वा साशङ्कं कथं नु तात अधिष्ठितानामपि बलानाम् इयम् अवस्था भवेत्. मम तातेन अधिष्ठिताम् अस्ति बलं. नाम एषा सेना तु मम तातेन अधिष्ठिता अस्ति. मम तातः एव अत्र सेनापतिः अस्ति. अतः तातेन अधिष्ठितानां सेनानां कथम् ईदृशी स्थितिः भवति, ईदृशी व्यवस्था कथं भवितुम् अर्हति. मम तातः किल अत्र सेनापतिः अस्ति, मम पिता अत्र सेनापतिः अस्ति, तथा एतादृशी अवस्था कथं जायेत इति. भवतु, संस्तम्भयामि. अस्तु, अहं सर्वान् संस्तम्भयामि, अहं सर्वान् स्थगयामि इति अर्थः. भो भो कौरवसेना समुद्रवेला परिपालन महामहीधरा नरपतयः कृतं कृतम् अमुना समरपरित्यागसाहसेन. कौरवसेना एव समुद्रः. कौरवसेना इति समुद्रस्य वेला, वेला नाम पारं, बार्डर् इति अर्थः. वेलां परिपालन, तस्य वेलायाः रक्षण, वेलायाः रक्षणे महामहीधराः. महामहीधरः इत्युक्ते पर्वतः. महामहीधराः इत्युक्ते नाम बृहत् पर्वताः सन्ति नरपतयः राजानः. कृतं कृतं नाम अत्र अलम् अलम् इति अर्थः. समरपरित्यागसाहसेन अमुना कृतम्. अमुना अलम्, अमुना एतेन समरपरित्याग युद्धभूम्याः त्यागं कुर्वन्ति भवन्तः. एतेन साहसेन एतादृशकार्यं कुर्वन्ति, एतेन कार्यसाहसेन
अलं पर्याप्तम्। यदि समरम् अपास्य नास्ति मृत्योः भयम् इति युक्तम् इतो अन्यतः प्रयातुम् अथ मरणम् अवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वे, किमिति मुधा मलिनं यशः कुरुध्वे इति इआर्सि ससन्दर्भं व्याख्यात इति प्रश्ने भवति। सर्वेषां जन्तूनां तु मरणम् इति अवश्यं सम्भवत्येव, नाम जातानां तु मरणं सम्भवति एव, किमर्थं यशः मलिनं कुरुध्वे, किमर्थं भवतां कीर्तिं मलिनं कुर्वन्ति, कीर्तेः मालिन्यम् उत्पादयन्ति। युद्धभूम्याः पराङ्मुखत्वम् इति विषयः तु अकीर्तिं जनयति, अयशः जनयति। किमर्थम् एतादृशं कार्यं कुर्वन्ति इति पृच्छति। समरम् अपास्य युद्धभूमिं त्यक्त्वा, मृत्योः भयं नास्ति, मम मरणस्य मरणात् मम भयं नास्ति, नाम समरभूमिं त्यक्त्वा आगच्छन्ति चेत् मरणं न सम्भवति इति तेषां चिन्तनम्। यदि भवन्तः तादृशं चिन्तयन्ति चेत् चिन्ता नास्ति, भवन्तः इतः अन्यतः प्रयातुं युक्तं, भवन्तः इतः अस्मात् युद्धक्षेत्रात् अन्यत्र गच्छन्ति, तद् युक्तमेव। यदि समरम् अपास्य समरं त्यक्त्वा, समरस्य त्यागेन मृत्योः भयं नास्ति, मरणात् भीतिः न स्यात्, मरणभीतिः न स्यात् इति उचितमेव इतः युक्तम्, उचितमेव इतः अन्यत्र अन्यतः प्रयातुम्, इतः अन्यत्र गन्तुम् उचितमेव। अथ इत्युक्ते पक्षान्तरे इति अर्थः। अथ एवं चिन्तयन्तु, जन्तोः मरणम् अवश्यमेव, एकैकस्यापि प्राणिनः मरणम् अवश्यमेव। किमिति, कस्मात् कारणात् यशः मुधा, यशः कीर्तिः, मुधा वृथा यूस्लेस् इति अर्थः, यशः कीर्तिं मलिनं कुरुध्वे, मलिनं कुर्वन्ति। व्याख्यां पठामः। यदि चेत् समरं युद्धम् अपास्य त्यक्त्वा मृत्योः मरणस्य भयं भीतिः न अस्ति नैव भवति, तर्हि इतः अस्मात् रणाङ्गणात् अन्यतः अन्यत्र प्रयातुं गन्तुं युक्तम् उचितम्। अथ पक्षान्तरे जन्तोः जीवस्य मरणं निधनम् अवश्यम् अनिवार्यम् एव, तदा यशः कीर्तिः मुधा, मुधा इत्युक्ते अत्र मृषा इति अर्थः अस्ति, मृषा इत्युक्ते असत्यम् इति अर्थः न, मुधा इत्युक्ते व्यर्थं, वृथा इति अर्थः, वेन् इति। किमिति, किमर्थं मलिनं कलङ्कितं कुरुध्वे विदधासि।